इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधितिवारी। इदानीं वार्ताः। सामान्य निर्वाचनस्य अन्तिमचरणस्य प्रचाराभियानं शीर्षतां भजते, यतोहि मतदानाय दिनद्वयमेव अवशिष्टम् अस्ति। एतस्मिन् सप्तमे चरणे सप्तराज्यानां केन्द्रशासितप्रदेशस्य च सप्तपञ्चाशदासनेभ्यः मतदानं जूनमासस्य प्रथमे दिनांके भविष्यति। आहत्य चतुरधिक नवशतं प्रत्याशिनः अस्मिन् नैर्वाचनिक समराङ्गणे सन्ति। प्रधानमन्त्री भाजपेति दलस्य च वरिष्ठनेता नरेन्द्रमोदी ह्यः पश्चिमबंगालस्य बारासात बशीरहाट लोकसभाक्षेत्रयोः चतुर्विंशति परगना जनपदे एकां जनसभां सम्बोधितवान्। अस्मिन् अवसरे श्रीमोदी अवदत् यत् तस्य शासनकाले भ्रष्टाचारं प्रति शून्य सहिष्णुता वर्तते। प्रधानमन्त्री उक्तवान् यत् कांग्रेसदलं इंडी संयुतिः च सामान्य जनानां विषये न चिन्तयति, ते केवलं आत्मनः चिन्तनमेव कुर्वन्ति। असौ अवदत् यत् पश्चिमबंगालस्य मतुआ समुदायस्य जनेभ्यः सीएए इत्यस्य अन्तर्गतं नागरिकता दीयते। सममेव उक्तं यत् तदीय प्रशासने महिलाः सशक्ताः भवन्ति। अपरत्र बिहारस्य मुख्यमंत्री नीतीशकुमारः नालन्दा लोकसभासनस्य अष्टवनक्षेत्रे जनसभां सम्बोधयन् लालूप्रसादयादवम् आलोचयत्। आरजेडी प्रमुखः लालूयादवः अवोचत् यत् ऐषमः नैर्वाचनिक आरक्षणं संविधानं च संरक्षयितुं वर्तते। अन्यत्र उत्तरप्रदेश मुख्यमंत्री योगी आदित्यनाथः गोरखपुरस्य प्रत्याशिनः रविकिशनस्य पक्षे प्रचारम् अकरोत्। कांग्रेसदलीया महासचिवा प्रियंका गांधी भाजपेति दलम् आरोपितवती यत् एतद्दलं महार्घं दूरीकर्तुं वृत्त्यवसरप्रदानं च कर्तुं विफलं जातम्। हिमाचलप्रदेशस्य ऊनाजनपदे गगरेटक्षेत्रे एकं नैर्वाचनिक जनसमागमं सम्बोधयन्ती एषा विगतवर्षस्य आपदां राष्ट्रियापदां न उद्घोषिते केन्द्रप्रशासनस्य कठोरालोचनां कृतवती। अत्रावसरे वरिष्ठ कांग्रेसनेता मुख्यमंत्री च सुखविन्दर सिंह सुक्खु समेत्य अन्ये नेतारः उपस्थिताः आसन्। प्रधानमन्त्री नरेन्द्रमोदी अस्य मासस्य त्रिंशद्दिनांकात् कन्याकुमार्याः त्रिदिवसीय यात्रां प्रति यास्यति। सूत्रानुसारी कन्याकुमार्यां श्रीमोदी रॉक मेमोरियल इत्यस्य भ्रमणं करिष्यति, अथ च ध्यानमण्डपम् इत्यत्र ध्यानं साधयिष्यति। इदं तत्स्थानं वर्तते यत्र स्वामी विवेकानन्दवर्येण ध्यानं कृतम् आसीत्। प्रधानमन्त्री नैर्वाचनिक अभियानानाम् उपरान्ते आध्यात्मिकयात्रार्थम् अभिज्ञायते। नवदशाधिकद्विसहस्रतमवर्षे असौ केदारनाथयात्रां कृतवान् आसीत्। विनाशकारं भूस्खलनं निध्याय भारतेन पापुआ न्यूगिनी राष्ट्रे सहाय्य पुनर्वास पुनर्निर्माण प्रयासान् समर्थयितुं एकलक्षं अमेरिकी डॉलरमितस्य सहाय्यराशेः घोषणा कृता। पापुआ न्यूगिनी इत्यत्र इंगा प्रान्ते अस्य मासस्य चतुर्विंशे दिने एकं विनाशकारं भूस्खलनं जातम्। अस्मिन् भूस्खलने शतशो जनाः आपीडिताः, तत्र जनधनहानिश्च संजाता। विदेशमन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् प्राकृतिक आपत्कारणेन समुत्पन्ने काठिन्ये समये भारतं पापुआ न्यूगिनी देशेन सह विद्यते। मन्त्रालयेनोक्तं यत् आपत्हानेः न्यूनीकरणं प्रबन्धनं च भारतस्य हिन्द प्रशान्त महासागर नीतेः इत्यस्यः एकः प्रमुखस्तम्भो वर्तते। इति वार्ताः।